इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। अथ वार्ताः। जम्मू कश्मीरे बहु प्रतीक्षितानाम् अभियान्त्रिकी चमत्काराणां चुनाव सेतोः अंजी सेतुश्च उद्घाटनं करिष्यति प्रधानमंत्री नरेन्द्र मोदी। अद्य जम्मू कश्मीर यात्रा काले उधमपुर श्रीनगर बारामुल्ला रेल लिंक परियोजनां राष्ट्राय समर्पयिष्यति। 270 किलोमीटर दीर्घायाः USBRL परियोजनायाः प्रायः 44,000 कोटि रूप्यकाणां व्ययेन निर्माणं कृतम्। USBRL परियोजना पूर्णतया विद्युद्युक्ता विभागः अस्ति, यत्र 36 सुरंगाः 43,900 सेतवश्च सन्ति। प्रधानमंत्री नरेन्द्र मोदिना प्रोक्तं यत् जम्मू कश्मीरे परियोजनायाः लोकार्पणं जनानां जीवने सकारात्मकं परिवर्तनम् आनयिष्यति। कांग्रेस सांसदस्य डॉ. शशि थरूरस्य नेतृत्वे सर्वदलीयं शिष्टमण्डलं गतरात्रौ वाशिंगटने अमेरिकायाः उपराष्ट्रपतिना जेडी वेसेन सह मेलनम् अकरोत्। शिष्टमण्डलम् अमेरिकायां भारतीय समुदायस्य सदस्यैः सह मेलनं कृतवत्। आतंकवादस्य विरोधे ऐक्य भारतस्य संकल्पं पुनरुक्तवान्। डॉ. थरूरः अमेरिकायाः राजदूतेन केन जेस्टरेण सह आतंकवादस्य विरोधे संघर्षे वार्तां कृतवान्।
There is no equivalence between terrorists and their victims. There is no equivalent between a country that provides safe haven to terrorism and a country that's a flourishing multi-party democracy that's trying to get on with its business. There is no equivalence between a state that is a status quo power that just wants to be left alone by its neighbors where the neighbors don't agree with us.
भारतीय जनता पार्टी इति दलस्य सांसदस्य रविशंकर प्रसादस्य नेतृत्वे सर्वदलीय प्रतिनिधिमण्डलं ब्रसेल्स देशे बेल्जियम चैम्बर्स रिप्रेजेंटेटिव इत्यस्य सदस्येन पीट डी रोवरेण सह मेलनम अकरोत्।
सबसे मिलने के बाद एक निष्कर्ष लगा कि आतंकवाद की चिंता से वो भी परेशान है, और हम ही सांसदों को सुनने के बाद उनको कई स्थिति स्पष्ट हुई है कि आतंकवाद दुनिया के लिए नासूर है और पाकिस्तान के जनरल उस देश को एक मिलिट्री टेररिस्ट नेक्सस से चलाते हैं। इन बातों को समझा जो लोकतंत्र के लिए मानवता के लिए खतरा है।
प्रधानमन्त्रिणा नरेन्द्र मोदिना NDEA प्रशासनस्य 11 पूर्णे सति समावेशी वृद्ध्यै सुशासनाय निर्धनानां कल्याणाय च स्वप्रतिबद्धतां पुनः उक्तम्। अस्मिन्नवसरे मोदी महोदयेन जनानां दरिद्रताः बहिः निष्कासयितुं सशक्तीकरणं कर्तुं सुदृढं आधारभूत संरचनां समावेशं च प्रति केन्द्र सर्वकारेण कृतानां पदानां उल्लेखः कृतः। छत्तीसगढ़े वीजापुरे 1 कोटि रूप्यकाणां पुरस्कारवान शीर्षः माओवादी नेता हतः। छत्तीसगढ़े सुरक्षाबलेन अद्य संघर्षे सदस्यस्य वरिष्ठ माओवादिनः कार्यकर्ता नरसिंह चालम अर्थात गौतम अर्थात सुधाकरः हतः। DIG आरक्षी अवदत् यत् सुधाकरस्य शिरसि कोटि रूप्यकाणां पुरस्कारः आसीत्। राष्ट्रीय स्वयं सेवक संघस्य सरसंचालकः डॉ. मोहन भागवतः अद्य उक्तवान् यत् युद्धस्य परिवर्तमाने छद्म युद्धः साइबर अर्थात् संगणकीय आक्रमणानि सदृशानि भवन्ति। एतादृश्यां परिस्थित्यां अस्माकं देशः रक्षाक्षेत्रे आत्मनिर्भरः स्यात्। रक्षाबल प्रशासनं च स्वीय कर्तव्यं निर्वहन्ति। विदेशमंत्री डॉ. एस. जयशंकरः अद्य नवदिल्ल्यां अनेकेषां विदेशमन्त्रीणां स्वागतं करिष्यन्ति। भारतीय वायुसेनायाः 2 MI-17 इत्याख्ये उदग्रयाने भारतीय सैन्यदलं वायुसैन्यदलं राष्ट्रिय आपत् प्रतिक्रियाबलं च उत्तर सिक्किमे पर्यटकानां निकासाय प्रयतन्ते। बेंगलुरु नगरे सम्मर्दन प्रकरणे कर्णाटकस्य मुख्यमंत्री सिद्धारमैया आरक्षी अधिकारिणां निलम्बनं कारितवान्। भारतस्य डेमा राजु गुकेश नार्वे शतरंज स्पर्धा श्रृंखला 25-2000 स्वीयं चतुर्थ स्पर्धां विजितवान् इति वार्ता।